अस्य श्री रुद्राध्याय प्रश्न महामन्त्रस्य अघोर ऋषिः अनुष्टुप् छन्दः सङ्कर्षणमूर्तिस्वरूपो योऽसावादित्यः परमपुरुषः स एष रुद्रो देवता नमः शिवायेति बीजम् शिवतरायेति शक्तिः महादेवायेति कीलकम् श्रीसाम्ब सदाशिवप्रसादसिद्ध्यर्थे जपे विनियोगः ॐ अग्निहोत्रात्मने अङ्गुष्ठाभ्याम् नमः ॐ दशपूर्णमासात्मने तर्जनीभ्याम् नमः ॐ चातुर्मास्यात्मने मध्यमाभ्याम् नमः ॐ निरूढपशुबन्धात्मने अनामिकाभ्याम् नमः ॐ ज्योतिष्टोमात्मने कनिष्ठिकाभ्याम् नमः ॐ सर्वकृत्वात्मने करतलकरपृष्ठाभ्याम् नमः ॐ अग्निहोत्रात्मने हृदयाय नमः ॐ दर्शपूर्णमासात्मने शिरसे स्वाहा ॐ चातुर्मास्यात्मने शिखायै वशतु ॐ निरूढपशुबन्धात्मने कवचाय हुम् ॐ ज्योतिष्टोमात्मने नेत्रत्रयाय वौषटु ॐ सर्वकृत्वात्मने अस्त्राय भट् ॐ भूर्भुवः सुवरोमिति दिग्बन्धः ध्यानम् आपातालनभस्तलान्तभुवन ब्रह्माण्डमाविस्फुरत् ज्योतिस्फाटिकलिङ्गमौलिविलसत्पूर्णेन्दुवान्तामृतैः अस्तोकाप्लुतमेकमीशमनिशम् रुद्रानुवाकान् जपेत् ध्याये दीप्सितसिद्धये ध्रुवपदम् विप्रोऽभिषिञ्चेच्छिवम् ब्रह्माण्डव्याप्तदेहाभसितहिमरुचाभासमाना भुजङ्गैः कण्ठे कालाः कपर्दा कलितशशिकलाश्चण्डकोदण्डहस्ताः प्रक्षारुद्राक्षमाला सुललितवपुषः शाम्भवा मूर्तिभेदाः रुद्राश्रीरुद्रसूक्तप्रकटितविभवा नः प्रयच्छन्तु सौख्यम् गणपतिकुम्भवामहे कविम् कवीनामुपमश्रवस्तमम् ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस्पत आनः शृण्वन् ज्योतिभिः सीदसादनम् ॐ महागणाधिपतये नमः
च मे वयश्च मे प्रियम् च मे नु कामश्च मे कामश्च मे सौमनसश्च मे भद्रम् च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणम् च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वम् च मे महश्च मे संविच्च मे ज्ञातृम् च मे तोश्च मे प्रसोश्च मे सीरम् च मे लयश्च मा मृतम् च मे मृतम् च मे अयक्ष्मम् च मे नाम यच्च मे जीवातुश्च मे दीर्घायुत्वम् च मे अनमित्रम् च मे भयम् च मे सुगम् च मे शयनम् च मे शोषा च मे सुदिनम् च मे ॐ शान्ति शान्ति शान्तिः हरिः ॐ